इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। आदौ मुख्याः वार्ताः। भारत लाओ पीडीआर इत्येतयोः षट् सहमतिः पत्राणां सन्धौ हस्ताक्षरं जातम्। जलाप्लावितेन सहायकनुदानरूपेण बिहार प्रशासनेन एकविंशतिः सहस्रोत्तर त्रिलक्ष परिवारेभ्यः पञ्चविंशत्युत्तर द्विशत कोटितोप्यधिक राशिः अन्तरितानि। भारतं लेबनान इत्यस्य सुरक्षा स्थित्याः विषये च चिन्तितमस्ति। अशेषिः देशे दुर्गा पूजनोत्सवः सश्रद्धं सोल्लासं च आमान्यते। अद्य तावत् महाअष्टमी महानवमी च विश्वस्मिन् हि विश्वे आचर्यते। अपि च क्रीडा वार्तासु महिला विंशतिः प्रतिविंशतिः विश्व चषक क्रिकेट प्रतिस्पर्धायाम् अद्य सायं दुबई अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे ऑस्ट्रेलिया दलं समूह ए इत्यस्य पाकिस्तान दलेन सह क्रीडा भविष्यति। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अब्रवीत् यत् भारतस्य एक्ट ईस्ट इत्येषा प्रतिवेशी प्रथम नीति आसियान देशीय सम्बन्धान् नूतनाम् ऊर्जाम् गतिम् दिशाम् च अयच्छत्। तेन सबलम् प्रतिपादितम् यत् एकविंशी शताब्दी भारतस्य आसियान देशानाम् च अस्ति। लाओ राजधान्याम् व्यञ्जने ह्यः भारतासियान शिखर सम्मेलने प्रधानमन्त्री अवदत् यत् भारतम् आसियान देशाः च शान्तिप्रिय राष्ट्राणि सन्ति, अपि च एतानि परस्परम् अखण्डतायाः सम्प्रभुतायाः च सम्मानम् कुर्वन्ति। प्रधानमन्त्री अवोचत् यत् यदा विश्वे अनेकेषु भागेषु साम्प्रतम् आपीड मतभेदादिकं दृश्यते तदा भारतासियान देशेषु मित्रता सहयोग संवाद सहभागिताः अततिराम महत्वपूर्णाः सन्ति। श्रीमोदी न्यगदत् यत् विगतेषु दशवर्षेषु आसियान क्षेत्रैः सह भारतस्य व्यापारः संवर्ध्य द्विगुणितः अर्थात् त्रयोदश कोटि डॉलरतः अधिकः संवृत्तः। एतदतिरिच्य अत्र सम्मेलने प्रधानमन्त्री विभिन्नैः आसियान नेतृभिः समं अपि द्विपाक्षिक चर्चाम् अकरोत्। भारत लाओ पीडीआर इत्येतयोः षट् सहमतिः पत्राणां सन्धौ हस्ताक्षरं जातम्। भारत संयुक्त राष्ट्र विकास साहाय्य कोष माध्यमेन लाओ इत्यत्र पोषण सुरक्षायां परिष्काराय मिलियन अमेरिका डॉलर इत्यस्य वित्तीय सहायता प्रदानार्थं निर्णयं स्वीकृतम्। जलाप्लावितेन सहायक अनुदान रूपेण बिहार प्रशासनेन एकविंशतिः सहस्रोत्तर त्रिलक्ष परिवारेभ्यः पञ्चविंशत्युत्तर द्विशत कोटितोप्यधिक राशिः अन्तरितानि। पटनायां ह्यः मुख्यमंत्री सचिवालये एकस्मिन् उपवेशनावधौ मुख्यमंत्री नीतीश कुमारः प्रत्यक्ष लाभ अन्तरणस्य माध्यमेन अनुदानस्य द्वितीयो भागः लाभार्थिनां वित्तकोषे प्रेषितवान्। राज्य सर्वकारः जलाप्लावन आपदोद्धार सहाय नूतन प्रावधानुगुणं प्रत्येक पीडित परिवारेभ्यः सप्तसहस्र रूप्यकाणि प्रदत्तानि, यत्पूर्वं षट्सहस्रम् आसीत्। एतदतिरिच्य सस्यानां या क्षतिः जाता तदर्थमपि राज्य सर्वकारः 90+400 कोटिः रूप्यकाणां दानस्य घोषणाम् अकरोत्। विदेश मन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् नवदेहली नितराम् स्थितिम् निरीक्षमानः अस्ति। ब्लू लाइन इत्यस्य पार्श्वे क्षीणतायाः सुरक्षा स्थित्याः विषये च चिन्तितमस्ति। मन्त्रालयः अवोचत् यत् संयुक्त राष्ट्र संघस्य परिसरस्य अखण्डतायाः सर्वैः आदराः परिपालनीयाः। संयुक्त राष्ट्र संघस्य शान्ति रक्षकाणां सुरक्षायै तेषाम् अधिकारस्य पवित्रतायै च समुचितानि उपायानि कर्तव्यानि इति। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अशेषि देशे दुर्गा पूजनोत्सवः सश्रद्धं सोल्लासं च आमान्यते। पश्चिम बंगाले बिहारे ओडिशायां देशस्य विभिन्नेषु भागेषु च जनाः दुर्गा पूजन समारोहेषु सोत्साहं भागं गृह्णन्ति। असम प्रदेशे चतुस्सहस्राधिकानि दुर्गा पूजन स्थलानि निर्मितानि। अस्माकं वार्ताहरैः संसूचितं यत् पूजन समितिभिः विभिन्नेषु विषयेषु रचनात्मकरीत्या सन्देशं प्रसारयितुम् अस्थायि दुर्गा पूजन स्थलं सज्जीकृतम्। राष्ट्रपतिः द्रौपदी मुर्मुः दुर्गा पूजावसरे देशवासिनः प्रवासिनश्च वर्धापितवती। तया प्रोक्तं यत् शौर्य प्रतीक रूपायै दुर्गा देव्यै समर्पितम् एतत् पर्व असतः उपरि सतः विजयस्य प्रतीक रूपम् अस्ति। अद्यतावत् अन्ताराष्ट्रिय बालिका दिवसो विश्वस्मिन् हि विश्वे आचर्यते। दिवसोऽयं लैंगिक समानतायाः शिक्षायाः अवसराणां च महत्वं प्रकाशयति। अस्मिन् वर्षे बालिकानां भविष्यदृष्टिः इति विषयो विद्यते। अन्ताराष्ट्रिय बालिका दिवसः बालिकानां सशक्तिकरणस्य तासां मानवाधिकारस्य सुरक्षायाः अद्यत्वे आवश्यकतां च प्रकाशयति। भारतीय ऋतु विज्ञान विभागेन आगामि द्वित्र दिवसेषु तमिलनाडु पुडुचेरी कराईकल दक्षिण आंतरिक कर्नाटक कोंकण गोवा गुजरात मध्य महाराष्ट्र सौराष्ट्र कच्छस्य च केषुचित् क्षेत्रेषु तीव्र वृष्टि अनुमानिता। विभागानुसारम् अग्रिम द्वित्र दिवसावधौ उत्तरी आंतरिक कर्नाटक रायल सीमा तेलंगना तटीय आंध्र प्रदेश यनमे च अत्यल्प वृष्टि संभाव्यते। प्रधानमंत्री नरेन्द्र मोदी अद्य लोकनायकं जयप्रकाश नारायणं प्रति अथ भारत रत्न नानाजी देशमुखं प्रति अपि तयोः जन्म जयन्त्यवसरे श्रद्धांजलिं समर्पितवान्। प्रधानमन्त्रिणा एकस्मिन् सामाजिक अन्तर्जालीय पटल माध्यमेन जेपी नारायणस्य देशे समाजे च योगदानस्य प्रशंसा कृता। सः अवोचत् यत् तस्य व्यक्तित्वं सर्वान् वर्गान् प्रेरयति। अपरस्मिन् च सन्देशे श्रीमोदी देशस्य ग्रामीण जनानां सशक्तिकरणाय नानाजी देशमुखस्य समर्पणं सेवां च स्मरणं कृत्वा तस्य प्रशंसाम् अकरोत्। महादेव द्यूत तन्त्रांशस्य प्रमुखः सौरभ चन्द्राकरः अद्य दुबय्यां निगडितः। प्रवर्तन निदेशालयेन गतवर्षे तस्य निगणनस्य विषये रक्त कॉर्नर संचेतना प्रकाशिता। संसूच्यते यत् चन्द्रकरस्य प्रत्यर्पण प्रक्रिया आरब्धा। संभाव्यते यत् एक सप्ताहाभ्यन्तरे तं भारतं पुनः आनेतुं शक्यते। बांग्लादेशे सतखिरा नगरस्य जेशोश्वरी मन्दिरे कालीदेव्याः मुकुटः ह्यः अपहृतः। एकविंशत्यधिकद्विसहस्रतमवर्षे मार्चमासे बांग्लादेशस्य प्रवासकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना जेशोश्वरी कालीमन्दिरे मुकुटोऽयम् उपहाररूपेण दत्तः इति बांग्लादेशस्य भारतीय उच्च आयोगेन अन्तर्जालीयमाध्यमेन सूचिता। प्रियाः श्रोतारः संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः MF गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने सार्धैकवादनतः भविष्यति। महिला विंशतिः प्रतिविंशतिः विश्व चषक क्रिकेट प्रतिस्पर्धायाम् अद्य सायं दुबई नगरस्य दुबई अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे ऑस्ट्रेलिया दलं समूह ए इत्यस्य पाकिस्तान दलेन सह क्रीडिष्यति। ह्यः समूह बी इत्यस्य वेस्टइंडीज दलं संयुक्त अरब अमीरातस्य शाहजहां क्रिकेट क्रीडांगणे बांग्लादेश दलं 8 स्तोभैः पराजितम् इति वार्ताः।